एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। निर्वाचनायोगस्य उच्चस्तरीय निर्वाचन सुरक्षा समित्या गृहमन्त्रालयस्य माध्यमेन सम्बद्ध निकायः निर्वाचनस्य स्वच्छ स्वतन्त्र निष्पक्ष भयरहित रूपेण सम्पादनाय निर्देष्टुम् च विभिन्नानि निर्देशनानि प्रदत्तानि सन्ति। समितेः ह्य उपविष्टेन उपवेशेन निर्वाचनस्य विघ्न सर्जनम् बहिष्करणम् वा मतदान केन्द्र नियन्त्रणम् मतदातृणाम् मतदानावसरात् वञ्चनम् त्रास तर्जनादि प्रदानम् चेति कार्याणि विधाय निर्वाचनस्य स्वच्छतायम् प्रभाव सर्जनात्मकम् कथम् विधमपि गतिविधिम् न कर्तुम् कारयितुम् च सुरक्षा रणनीतेः अवलम्बनार्थम् निर्दिष्टमिति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः अवदत्। उपवेशेन निर्वाचनाचार संहितायाः उल्लंघनस्य गतिविधिन् निर्वाचनस्य प्रचार प्रसारयोः निषेधनावधौ सम्भाव्यान् अवांछित गतिविधिन् आयुध निषेधन प्रवृत्ति कार्याणि च निरीक्ष्य एतेषाम् कार्याणाम् पूर्णरूपेण नियन्त्रणाय सक्रिय रूपेण परिचालिताः भवितुम् सम्बद्धाः सर्वे पक्षाः निर्दिष्टाः सन्तीति प्रवक्ता पौडेलः प्रावोचत। उपवेशेन मतदान दिनस्य अष्टचत्वारिंशतो घण्टानाम् पूर्वकालतः प्रचार प्रसारयोः निषेधनस्य कारणात् एतदवधौ प्रचार प्रसार सहितान् निर्वाचन विधेः प्रतिकूलतया कथम् विधानपि अवांछित गतिविधीन् पूर्णरूपेण नियन्तुम् मतदानस्य दिवसे यातायात साधनानाम् व्यवस्थित रूपेण प्रबन्धम् विधातुम् सुरक्षायै प्रतिमतदान केन्द्रम् त्रिंशतः कलानाम् अभ्यन्तरे प्राप्त्यर्थम् पर्याप्तस्य आरक्षण बलस्य व्यवस्थाम् कर्तुम् च निर्देशनम् प्रदत्तमिति असौ अज्ञापयत। एवमेव उपवेशेन निर्वाचन सम्पादन मनु मतपत्र सहितानाम् मतमञ्जुषाणाम् परिवहन सम्बद्ध कार्ययोजनाम् निर्माय क्रियान्वेतुम् मतगणना कार्यम् निर्बाध रूपेण सञ्चालयितुम् मतगणना स्थलानाम् पर्याप्त सुरक्षा प्रबन्धनम् विधातुम् सम्बद्ध निकायैः एतद् विषयकम् योजनाबद्धम् पूर्व कार्यम् व्यवस्थापनम् च कर्तुम् कारयितुम् च निर्दिष्टम् वर्तते। प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देउवा आराष्ट्रम् समृद्धम् विधातुम् राष्ट्रम् समृद्धम् विधातुम् संविधानम् रक्षितुम् च वर्तमान सत्ता गठबन्धनस्य दीर्घकालम् यावत् स्थापनायाः आवश्यकताम् दर्शयति। डडेलधुरा जनपदस्य भागेश्वर स्थाने ह्य आयोजिताम् नैर्वाचनिकीम् सभाम् सम्बोधयन् प्रधानमन्त्री देउवा अभाषत संविधानस्य अतिक्रमणस्य संकटः वर्धितः इत्यतोऽपि गठबन्धनम् निर्मेयम् अभूत्। प्रधानमन्त्री देउवा राजनीतिकीम् अस्थिरताम् समाप्य देशस्य विकास समृद्ध्यर्दिशि अग्रे वर्धापनमपि आत्मनः सर्वोपरि प्राथमिकता स्थिति अभूचत। एवमेव बैतडी जनपदस्य शिवनाथ ग्रामपालिकायाः सुनेल खान स्थाने ह्य आयोजितायम् नैर्वाचनिक्यां सभायाम् प्रधानमन्त्री देवागदत् पञ्चेश्वर बहुद्देशीय परियोजनाम् अग्रे वर्धयितुम् सर्वकारः प्रतिबद्धो वर्तते। प्रधानमन्त्री देवा भारतेन सम्पृक्ते सीमा प्रवेश बिन्दो महाकाली नद्याम् सेतोः निर्माणाय भारतेन सह समन्वयः विद्यमानोस्तीति असूचयत। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति संयुक्त लोकतान्त्रिक वाम गठबन्धनस्य ध्यानम् विकास समृद्ध्योः केन्द्रितम् वर्तते। गठबन्धनेन ताप्लेजुङ जनपदस्य मुख्यालये फुङलिङ स्थाने ह्य आयोजितायाम् नैर्वाचनिक्याम् सभायाम् अध्यक्ष प्रचण्ड राष्ट्रे स्थायी शान्ताये स्थिर विकासाय च संयुक्त लोकतान्त्रिकम् गठबन्धनम् निर्मितम् इति स्पष्टीकृतवान्। अध्यक्ष प्रचण्ड एतन्मासस्य चतुर्थ दिवसस्य निर्वाचनम् प्रतिगामिनीम् शक्तिम् पराजित्य राष्ट्रस्य उचित दिशि अग्रे वर्धनस्य अवसरस्य रूपेण मन्तुमपि अन्वरुणत। सभायाम् नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत देशे विकासाय गठबन्धनस्य आवश्यकताम् दर्शितवान्। अस्थिरता तो रक्षितुम् देशम् समृद्धम् विधातुम् च गठबन्धनम् निर्मितम् अस्थिति चर्चयन् असौ गठबन्धनम् दीर्घकालम् यावत् तिष्ठतीति न्यश्चिनोत्। ह्य एव गठबन्धनेन भोजपुर जनपदस्य पूर्व भागस्य तिवारी भञ्ज्याङ स्थाने आयोजितायाम् नैर्वाचनिक्याम् सभायाम् नेकपा माओवादी केन्द्रस्य अध्यक्ष प्रचण्ड राजनैतिक स्थिरतायै निर्मितम् गठबन्धनम् दीर्घकालम् यावत् तिष्ठतीति सूचितवान्। नेकपा एमाले दलस्य अध्यक्ष पूर्व प्रधानमन्त्री छ केपी शर्मा ओली कथयति वर्तमान शासकीय स्वरूपेणैव राष्ट्रिय राजनीतिक स्थायित्वम समृद्धिश्च सम्भवतः। विराटनगर विमानस्थले पूर्वेद्यु संचारकर्मीभिः सह भाषमाणः असौ शासकीय स्वरूपेण निर्धारिताम् प्रणालीम् यथार्थतः व्यवस्थातुम् बलम् प्रादात्। असौ वर्तमानस्य शासकीय स्वरूपस्य प्रणाल्याम् किमपि व्यवधानम् नास्ति इति चर्चयन् इमाम् यथार्थतः क्रियान्वेतुम् दलानाम् गाम्भीर्यम् आवश्यकम् अस्ति अभासत। प्रतिनिधि सभायाः प्रदेश सभानां च निर्वाचनस्य वैदेशिक संस्थाद्वयेन सह षड्चत्वारिंशता संस्थाभिः पर्यवेक्षणं विधास्यते। एवमेव विभिन्नानां शरणां देशानां निर्वाचनायोगस्य प्रतिनिधयः अपि निर्वाचनस्य पर्यवेक्षणाय नेपालम् आगमिष्यन्ति इति निर्वाचनायोगेन सूचितं वर्तते। निर्वाचनायोगेन प्रदत्त मान्यतासु संस्थासु एशियन नेटवर्क फर फ्री इलेक्शन, सिविक च्याम्बर अफ रशियन फेडरेशन इति संस्थाद्वयमेव पर्यवेक्षणे सहभागी जायमानं वर्तते। नेपालस्य अभ्यन्तरस्य चतुश्चत्वारिंशता संस्थाभिः पर्यवेक्षणाय अनुमतिः प्राप्ता स्थिति निर्वाचनायोगस्य सहायक प्रवक्ता कमल भट्टराई अज्ञापयत। एवमेव भारत बंगलादेश भूटान मालदीव्स श्रीलंका दक्षिण कोरिया देशानां निर्वाचनायोगस्य पदाधिकारिणः पर्यवेक्षणाय नेपालम् आगन्तारः। निर्वाचनायोगस्य अनुसारेण भारत बंगलादेश भूटान मालदीव्स देशेभ्य तत्रत्य प्रमुख निर्वाचन आयुक्तानां नेतृत्वे पर्यवेक्षण समूहः आगन्तारः। प्रतिनिधि सभायाः प्रदेश सभानां च निर्वाचनस्य दिने एतन्मासस्य चतुर्थे दिवसे काष्ठमण्डपोपत्यकायम् यातायात साधनानां गमनागमनम् विदाप्यते। काष्ठमण्डपोपत्यकायाः त्रयाणां प्रमुख जनपदाधिकारिणां ह्यः उपविष्टेन निर्वाचन सुरक्षा सम्बद्धेन संयुक्तोपवेशेन निर्वाचनायोगेन निर्धारित मापदण्डानि विहाय अन्यानि यातायात साधनानि पिधातुम् निर्णीतम् वर्तते। निर्वाचनायोगस्य निर्णयस्य अनुसारेण एतन्मासस्य चतुर्थे दिवसे प्रातः चतुर्वादनात् सायं सप्तवादनम् यावत् उपत्यकायाम् आन्तर्यातायात साधनानां गमनागमनम् पिधातुम् निर्णीतमिति काष्ठमण्डपस्य प्रमुख जनपदाधिकारी घनश्याम उपाध्यायः अज्ञापयत। प्रमुख जनपदाधिकारिणाम् उपवेशेन निर्वाचन दिवसात् द्वासप्ततेः घण्टानां पूर्वकालत एव जनपदत्रय एव मदिरायाः नयनानयनम् विक्रय वितरणे च निषेद्धुम् निर्णीतमिति प्रमुख जनपदाधिकारी उपाध्यायः अवदत। निर्वाचनस्य कारणेन अद्य स्वश्च जनपद प्रशासन कार्यालयैः शान्ति सुरक्षे विपदम् निर्वाचनम् न्यायिक प्रकरणम् च विहाय अन्यासाम् सेवानां प्रवाहं स्थगयितुमपि निर्णीतमिति प्रमुख जनपदाधिकारी उपाध्यायः अबोधयत। बाँके जनपदस्य नेपालगंज उपमहानगरपालिकायाः दशमवडा क्षेत्रस्य भ्रिकुटीनगरे ह्य सायं बम्बास्त्र विस्फोटनेन जनद्वयम् आहतं वर्तते। कोष्ठस्य अभ्यन्तरे बम्बास्त्र निर्माणस्य क्रमे विस्फोटनात् नेत्र विक्रमचन्द विप्लव नेतृत्वस्य नेपाल कम्युनिष्ट दलस्य अखिल क्रान्तिकारी संगठनस्य बाँके जनपदस्य अध्यक्ष दिल्ली क्षेत्री धर्म बडसवाल च आहतौ इति बाँके जनपद परिपरीक्षक श्यामकृष्ण अधिकारी ज्ञापन। आहतयोः बडुवाल इत्यस्य अवस्था गभीरा स्थिति प्रहरिणा ज्ञापितं वर्तते। निर्वाचनायोगेन सुनसरी जनपदस्य चतुर्थ निर्वाचन क्षेत्रस्य ख क्षेत्रे प्रदेश सभाय प्रस्तुत प्रत्याशितायाः लोकतान्त्रिक समाजवादी दल नेपालस्य प्रत्याशिनः सन्तोष कुमार मेहता इत्यस्य प्रत्याशिता निरस्तीकृता वर्तते। मेहता इत्यनेन बहुविवाह सम्बन्धे अपराधे दण्डनम् यापयित्वा दण्डन यापनस्य वर्षत्रयस्य कालस्य पूरणस्य अभावात् त्रिसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीय प्रदेश सभा सदस्य निर्वाचनाधिनियमस्य अनुसारेण एतस्य प्रत्याशिता निरस्तीकृतेति ज्ञापितमस्ति। एतन्मासस्य चतुर्थे दिवसे सम्पत्स्यमानं प्रतिनिधि सभायाः प्रदेश सभानां च निर्वाचनं दृष्टिगतं विधाय जनकपुरात् जयनगरं यावत् सञ्चाल्यमानं विस्तीर्णकाय रेलयानम् अद्यतः दिनचतुष्टयाय पिधाप्यते। नेपाल रेलवे कम्पनी लिमिटेड संस्थानस्य प्रबन्ध संचालक निरञ्जन झा ह्य सूचनां प्रकाश्य एवं अज्ञापयत् इति समाचारः।